एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अद्य श्रीकृष्ण जन्माष्टमी पर्व अशेष हिन्दू धर्मावलम्बिभिः भगवतः श्रीकृष्णस्य पूजाराधने सम्पाद्य समायोज्यमानम् विद्यते। उपलक्ष्येऽस्मिन् विभिन्नेषु कृष्णमन्दिरेषु लक्ष्मीनारायणमन्दिरेषु च श्रद्धालवो भक्तजनाः भगवतः श्रीकृष्णस्य दर्शनपूजनार्थं प्रातःकालादेव उपतिष्ठन्ते। विशेषतो राजधान्याः निकटवर्ति ललितपुरस्य श्रीकृष्णमन्दिरे भगवतः श्रीकृष्णस्य दर्शनपूजनस्तोत्रपाठान् कर्तुं पारिसहस्रं नराः नार्यश्च सश्रद्धं सम्मिलिताः भवन्ति। असुर प्रकृतिकानाम् कंस मागधाधीनाम् क्रूर शासकानाम् अत्याचारात् सज्जनान् संरक्षितुम् देवद्विज मुनिसिद्धानाम् प्रार्थनाम् स्वीकृत्य कृष्णाष्टम्याः रात्रौ गोलोक निवासी भगवान् राधारमणः मथुरायाः कारगृहे देवकी वसुदेवयोः पुत्ररत्नत्वेन अवातरत् इति मान्यतामाश्रित्य कृष्णस्तु भगवान् स्वयमिति भागवतीय वचनम् निभाल्य च संसाराभिधानात् सततम् जागरूकान् दुःखवदा वा नलदाहात् मुक्तिम् अभिलाषुकाः श्रद्धालवो जनाः व्रतोपवास भजन कीर्तनादि माध्यमेन सकल जीवनिकायाः वासम् श्रीनिवासम् अमुम् स्मरन्ति अर्चन्ति च। अवसरेऽस्मिन् धार्मिक संघ संस्थाः श्रीकृष्णस्य श्रीविग्रहम् सज्जीकृत्य शंख घण्ट मृदङ्गान् संवाद्य जय घोषपूर्वकम् रथयात्राम् प्रस्तुवन्ति। देशस्य इतरभागेष्वपि अद्य रथयात्रोत्सवाः आयोज्यन्ते यत्र बालवृद्ध महिला युवानः सहभागिनौ भवन्ति। अस्मिन् क्रमे स्थाने स्थाने भगवतो लीला विलसितानि चित्राणि च प्रदर्श्यन्ते। असत्योपरि सत्यस्य अन्यायोपरि न्यायस्य च विजयप्रतीकस्य रूपेण इदं पर्व समाजे समादृतं वर्तते। श्रीकृष्णस्य मुखारविन्दात् निःसृतं निष्काम कर्म प्रतिपादकं गीतादर्शनं मानवजीवने सुख शान्ति सुव्यवस्थाः स्थापयितुं महत्वपूर्णं मन्यते। अद्यैव भाद्र शुक्ल पञ्चमीतः अष्टमीं यावत् नेपालस्य सुदूरपश्चिमकर्णाली प्रदेशाभ्याम् सहितेषु विभिन्नेषु भूभागेषु समायोज्यमानस्य गौरापर्वणः अन्तिमदिनम् च वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन हिन्दू धर्मावलम्बिनाम् महति श्रीकृष्ण जन्माष्टमी पर्वणि शुभकामनाम् प्रदाय अनेन पर्वणा समाजम् भावनात्मैकतायाः सूत्रे आबद्धम् कृत्वा धार्मिक सहिष्णुताम् पारस्परिकम् सद्भावम् च संस्थाप्य सत्कर्मणे प्रेरणा प्रदतु इति भवतु इति कामना विहितास्ति। सन्देशे राष्ट्रपतिना पौडेलेन अनेन पर्वणा सम्पूर्ण नेपालीषु पारस्परिक सद्भावम् करूणाम् मैत्रीभावनाम् च अभिवर्ध्य सभ्य सुसंस्कृतस्य च समाजस्य निर्माणाय प्रेरणा प्रदीयते इति च कामना विहितास्ति। राष्ट्रपति पौडेलः गौरा पर्वणा भौगोलिक धार्मिक सांस्कृतिक आस्थाम् पारस्परिक सद्भावम् च प्रगाढीकर्तुम् महत्वपूर्ण भूमिका निरूढास्तीति उक्तवान् वर्तते। उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन श्रीकृष्ण जन्माष्टमी पर्वणि श्रद्धाभक्तिभावेन विधीयमानाभिः पूजा प्रार्थनाभिः प्रतिकूल भावनाम् न्यूनीकर्तुम् सहयोगो भविष्यतीति विश्वासः व्यक्तोऽस्ति। अवसरेऽस्मिन् नेपाली कांग्रेस दलस्य सभापतिना पूर्व प्रधानमन्त्रिणा च शेरबहादुर देउवाविधेन शुभकामना सन्देश प्रदत्तो वर्तते। रामेछाप जनपदस्य दोरम्बा सैलुङ ग्रामपालिकायाः तृतीयवडा क्षेत्रे परह्य रात्रौ दूरापन्ने भूस्खलने निपत्य मृतानाम् जनानाम् शवाः घटनास्थले एव परीक्ष्य परिवारजनेभ्यः अर्पिताः वर्तन्ते। रामेछाप प्रहरी कार्यालयस्य सूचनाधिकारिणः कौशल नेउपाने विधस्य अनुसारेण आहताः जनाः उपचाराय काष्ठमण्डपम् प्रेषिताः सन्ति। मृतकानाम् शवाः परीक्षणस्य पश्चात् परिवारजनेभ्यः अर्पिताश्च वर्तन्ते। भूस्खलने निपतिताः अन्ये चत्वारो जनाः प्राप्ताः न सन्ति, तेषाम् अन्वेषणम् अद्य विधीयते इति रामेछाप प्रमुख जनपदाधिकारी अनिता निरौला अज्ञापयत् वृष्टेः अधिकमात्रायां सत्वात् अतिरिक्त भूस्खलनस्य सम्भावनया ह्य अन्वेषण कार्यं स्थगितकृतम् इति असौ असूचयत्। निकटवर्ति वसतयः अपि संकटे सन्तीत्यतः आसन्न पञ्चत्रिंशत् परिवाराः सुरक्षित स्थानेषु स्थानान्तरिताः वर्तन्ते इति प्रमुख जनपदाधिकारी निरौला सूचयति। भूस्खलनेन मृतेषु जनेषु सैलुङ ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य त्रिंशत् वर्षीया चण्डिका श्रेष्ठ, तस्याः अष्टादश मासानां पुत्र आयुषः सप्तपञ्चाशत् वर्षीया उर्मिला पहरी, त्रिंशत् वर्षीया सन्दीप पहरी, एकादश वर्षीय सन्तोष पहरी, चतुर्दश वर्षीय विज्ञान पहरी च वर्तन्ते। प्रधानमन्त्री केपी शर्मा ओली तास्कर्यम् भ्रष्टाचारम् च नियन्त्रयितुम् प्रभावकारी रूपेण कार्यम् कर्तुम् निर्दिशति। प्रधानमन्त्रिणा ओलिना राजस्वानुसन्धान विभाग, सार्वजनिक क्रयानुगमन कार्यालय, राष्ट्रिय सतर्कता केन्द्रम्, राष्ट्रिय अनुसन्धान विभाग, नेपाल ट्रस्ट नाम्नी संस्था च तास्कर्यस्य भ्रष्टाचारस्य राज्य सम्पदः दुरुपयोगस्य च नियन्त्रणाय प्रभावकारी रूपेण कार्यं विधातुं निर्दिष्टाः वर्तन्ते। सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्यः सम्भूतायां वार्षिक समीक्षायां मन्त्रालयस्तरीय विकास समस्या समाधान समितेः उपवेशे च प्रधानमन्त्री ओली विगत समये त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् त्रयस्त्रिंशत् किलो परिमितस्य सुवर्णस्य तास्करस्य घटनां स्मारयन् सम्बद्धस्य निकायस्य दायित्ववाहिनः अभावस्य कारणेन राज्येन विपुलमात्रायां राजस्वम् हापनीयम् अभूत्, अव्यवस्था वर्धिता चेति अभासत। मुख्य सचिव लीलादेवी गर्तौला न्यूनताम दुर्बलताम च परिचित्य आगामी दिनेषु प्रभावकारितया कार्यम् विधेयम् इति अवोचत। ह्य एव लुम्बिनी बौद्ध विश्वविद्यालयस्य षोडशे सभोपवेशे प्रधानमन्त्री ओली बुद्धस्य दर्शनस्य सन्देशस्य च शिक्षाया माध्यमेन विस्तारस्य आवश्यकताम् दर्शितवान् इति समाचाराः।